नमो नमः सर्वेभ्यः, नमस्कारः।
ॐ गणेशाय नमः। ॐ वागर्ताविव सम्प्रक्तौ वागर्तप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ। ॐ ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ
धन्यवादः भगिनी, सुन्दरं, धन्यवादः।
धन्यवादः भगिनि।
अस्तु, अद्य किं कुर्मः? कति इति पदस्य विषये किमपि कोऽपि किमपि प्रश्न अपि उत्तरं गृहपाठरूपेण कृतवती वा? न? अस्तु, कति इति विषये कोऽपि प्रश्नः अस्ति वा अत्र?
न भगिनि,
सुधा भगिनी एक कति कति पदस्य योजनं कृत्वा एकं लघु प्रश्न पृच्छतु भगिनि।
आं भगिनि, कति स्यूते कति पुस्तकानि सन्ति?
स्यूते कति पुस्तकानि सन्ति? शैलजा भगिनी वदतु, कति पुस्तकानि सन्ति स्यूते?
आं भगिनि, स्यूते चत्वारि पुस्तकानि सन्ति।
उत्तमं। हा, कविता भगिनी एकं प्रश्न एकः प्रश्नः पृच्छतु।
I'm thinking, Bhagini, sorry, I'm a little blank. I will answer. Sudha Bhagini, if you can ask me.
Prishatu Bhagini.
Aam Bhagini. Malayam, kati pushpani santi?
मालायाम् अष्टपुष्पाणि सन्ति।
उत्तमम् उत्तमम्। अस्तु, एकं प्रश्नं पृच्छतु कविता भगिनी अधुना।
स्थालिकायां कति फलानि सन्ति?
फलानि, उत्तमं,
फलानि सन्ति।
पुनः वदतु,
स्थालिकायां कति फलानि सन्ति?
उत्तमं। दीपिका भगिनी नमस्ते, श्रूयते वा दीपिका भगिनी? अस्ति वा दीपिका भगिनी? न श्रूयते भगिनी अधुना। श्रूयते भगिनी, दीपशिखा भगिनी she's having some issues. अस्तु स्थालिकायां कति फलानि सन्ति? शैलजा भगिनी वदतु.
आं भगिनि, स्थालिकायां षट् फलानि सन्ति.
षट् फलानि सन्ति, उत्तमं. षट् फलानि सन्ति, उत्तमम्. अधुना संख्या पुनः एकवारं शीघ्रं वदामः. सर्वे संख्या शब्दाः अस्तु. आरम्भं करोतु शैलजा भगिनी. एकं
आं भगिनि, टिल् वाट् नम्बर् भगिनि? आल्
विंशतिः.
आं भगिनि, एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः.
उत्तमं. सुधा भगिनी अग्रिमं करोतु.
आं भगिनि, एकविंशतिः, द्वाविंशतिः, त्रयोविंशतिः, चतुर्विंशतिः, पञ्चविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः, नवविंशतिः, त्रिंशत्, एकत्रिंशत्, द्वात्रिंशत्, त्रयस्त्रिंशत्, चतुस्त्रिंशत्, पञ्चत्रिंशत्, षट्त्रिंशत्, सप्तत्रिंशत्, अष्टात्रिंशत्, चत्वारिंशत्.
अष्टात्रिंशत्,
नवत्रिंशत्, चत्वारिंशत्.
चत्वारिंशत्. करोतु कविता भगिनी अग्रिमम्.
एकचत्वारिंशत्, द्वाचत्वारिंशत्, द्विचत्वारिंशत्, त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत्, चतुश्चत्वारिंशत्, पञ्चचत्वारिंशत्, षट्चत्वारिंशत्, सप्तचत्वारिंशत्, अष्टचत्वारिंशत्, अष्टाचत्वारिंशत्, नवचत्वारिंशत्, पञ्चाशत्.
उत्तमम्. शैलजा भगिनी अग्रिमं करोतु.
आं भगिनि, एकपञ्चाशत्, द्विपञ्चाशत्, त्रिपञ्चाशत्, चतुःपञ्चाशत्, पञ्च
रूपं
चतुः
पञ्चमस्ति. द्वा अपि द्वि.
आं भगिनि, द्वापञ्चाशत्, द्विपञ्चाशत्, त्रयः पञ्चाशत्, त्रिपञ्चाशत्, चतुः पञ्चाशत्, पञ्चपञ्चाशत्, षट्पञ्चाशत्, सप्तपञ्चाशत्, अष्टपञ्चाशत्, अष्टापञ्चाशत्, नवपञ्चाशत्, षष्टिः, एकषष्टिः, द्वाषष्टिः, द्विषष्टिः, त्रयः षष्टिः, त्रिषष्टिः, चतुःषष्टिः, पञ्चषष्टिः, षट्षष्टिः, सप्तषष्टिः, अष्टषष्टिः, अष्टाषष्टिः, नवषष्टिः, सप्ततिः.
षकार मूर्धन्य षकार भगिनि.
नवषष्टिः, नवषष्टिः,
षष्टिः, द्वाषष्टि, द्वाषष्टिः,
द्वाषष्टिः. आं भगिनि,
षष्टिः, त्रयः षष्टिः, मूर्धन्य.
आं भगिनि,
उत्तमं, धन्यवादः. दीपशिखा भगिनी अधुना अस्ति वा? श्रूयते वा? नमस्ते भगिनी. अस्तु, सुधा भगिनी अग्रिमं करोतु.
आं भगिनि सप्ततिः एकसप्ततिः द्वासप्ततिः द्विसप्ततिः त्रयः सप्ततिः त्रिसप्ततिः चतुः सप्ततिः पञ्चसप्ततिः षट् सप्ततिः सप्तसप्ततिः अष्टसप्ततिः अष्टासप्ततिः नवसप्ततिः अशीतिः एकाशीतिः द्वाशीतिः त्रयशीतिः चतुर्शीतिः पञ्चाशीतिः षट्शीतिः सप्ताशीतिः अष्टाशीतिः नवाशीतिः नवतिः.
उत्तमं. कविता भगिनी अग्रिमं करोतु.
भगिनि 82 विल् बि द्वयशीतिः न
द्वयशीतिः
द्वयशीतिः एकनवतिः एकनवतिः द्वानवतिः द्विनवतिः त्रयोनवतिः त्रिनवतिः चतुर्नवतिः षण्णवतिः सप्तनवतिः अष्टनवतिः अष्टानवतिः नवनवतिः शतम्
पञ्चनवतिः पञ्चनवतिः बोले
दीप्षिका भगिनी नमस्ते.
नमस्कार भगिनी. पञ्चनवतिः नहीं बोला.
नहीं बोला
जी भगिनी. वो इधर मिसिंग है इसीलिए मेरे से भी मिस हो गया. पञ्चनवतिः
हाँ मिसिंग है ना.
पञ्चनवतिः अस्तु. दीप्षिका
there is no current in my house ना. No current in my house. No electricity.
कल से नहीं है?
कल से? I थी, फिर चले गई. It came in the morning, then it went in the afternoon again.
So, किम, WhatsApp मध्ये, WhatsApp अस्ति वा तत्र, दीप्षिका भगिनी?
हाँ, WhatsApp.
हाँ, WhatsApp मध्ये, संख्या दत्तानि संख्या शतं द्विशतं त्रिशतम् इति दत्तं. पठतु एकवारं भगिनि. अहं प्रेषयामि.
अच्छा यू सेंट इट इन व्हाट्सएप. ओके
व्हाट्सएप मध्ये किञ्चित्
व्हाट्सएप तो आई डाउट वो डाउनलोड करेगा बिकॉज़
अस्तु अस्तु. हा शैलिजा भगिनी एकवारं वदतु.
हाय इफ आई चेंज एंड गो हियर एंड देयर आई माइट गेट डिस्कनेक्टेड ओनली.
हा 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 शृणोतु भगिनी. दीक्षिता भगिनी शृणोतु. हा
आम भगिनी शतं द्विशतं त्रिशतं
अपि चतुःशतम् अपि द्वेशते
द्विशतं और द्वेशते त्रिशतं चतुःशतं पञ्चशतं षट्शतं सप्तशतम् अष्टशतं नवशतं सहस्रं दशशतं द्विसहस्रं.
धन्यवाद भगिनी. धन्यवाद भगिनी. हा सुधा भगिनी करोतु अग्रिमम्.
आं भगिनि द्विसहस्रं त्रिसहस्रं चतुःसहस्रं पञ्चसहस्रं
चतुः वा चतः
दत्तं
चतः दत्तं न जानामि. समीचीनं वा न वा तु अपि न जानामि अहं. चतः सहस्रं हा करोतु भगिनि.
चतः सहस्रं पञ्चसहस्रं षट्सहस्रं सप्तसहस्रम् अष्टसहस्रं नवसहस्रम् अयुतम्.
उत्तमम्. अग्रिमं करोतु कविता भगिनी.
आं भगिनि लक्षं प्रयुतं कोटिः अर्बुद्धः अब्जः खर्वः निखर्वः महापद्मः शङ्कुः नो ऐ डोण्ट् नो हौ टु से दट् भगिनि शङ्कुः शङ्कुः जलधिः अन्त्यः मध्यः परार्धः परार्धः परार्धः
परार्ध इत्युक्ते किं कथं जानीमः इत्युक्ते किम्
They say that it is Brahma's half-life, right, baby? 50 divine years. Pararda.
1 lakh billion years, no? 1 lakh billion years, Pararda. अत्र वयं किम् अवगतं पुरातनकाले अपि इति बृहत् संख्या अस्ति इत्युक्ते सर्वे जनाः अपि च ऋषि मुनयः अपि सर्वे दीक्षिता भगिनी अहं म्यूट् करोमि भवत्याः गृहे किञ्चित् ध्वनिः अस्ति धन्यवादः भगिनी अस्तु अस्तु बृहत् संख्या इति बहु बृहत् संख्या अस्ति किन्तु तस्य किमपि प्रयोजनम् आसीत् पुरातनकाले अपि तस्य प्रयोजनम् आसीत् इत्युक्ते किम् इत्युक्ते किं वदतु कोऽपि
उसका कुछ अर्थ होगा मीनिङ्ग् होगा देयर इज सम लॉजिक टू इट
मतलब इतने पुराने समय में यहाँ पे तो जीरो तक का लोग का इन्वेंशन नहीं था मतलब उन लोग को तो हजार के ऊपर में भी संख्या में भी दिक्कत जाती थी बिकॉज विदाउट डेसिमल सिस्टम इज वेरी हार्ड कहाँ तक रोमन लेटर्स में आप जा सकते हैं एनीबडी लर्न रोमन लेटर्स स्कूल में पढ़ते थे हम लोग वेरी डिफिकल्ट सो बट बिकॉज ऑफ द डेसिमल सिस्टम एक तो डेसिमल सिस्टम दूसरा इफ यू लुक एट द वर्ड्स इन संस्कृत फॉर एग्जाम्पल आई लर्न द वर्ड प्राण I often take this example. Prana ityukte kim kupi janati va?
Is it breath bagini?
Breath ityukte breath. Prana ityukte breath. Api cha pra anu. Going towards becoming
one.
Experience of the smallest atom, anu. Breath is it, no? So, aham brahmasmi ityukte kim? I am that. Who is that? What is that? See, नहीं तो हम लोग क्या सोचते हैं हम ये शरीर है Most of us at least experience life like that. I am this body. किंतु just the word prana teaches you कि ultimately हम लोग को प्राण की ओर जाना है फिर प्राण से भी आगे जाना है मतलब वो breath जो है वही तो मैं हूँ फिर उसके बाद लगता है नहीं वो भी नहीं हूँ मैं So going towards the smallest material level and then going beyond that. Phir wo brahmasmi banta hai. Prana also, iska matlab hota hai, ki jo average human breath length hai. Par sabka average nikalenge, तो उन लोग ने देखा कि ये होता है 4 सेकेंड अप्रोक्सीमेटली लिटिल बिट नॉट क्वाइट 4 सेकेंड आई थिंक सो दे हैड डाउन टू टाइम वॉज मेजर्ड नॉट ओनली अप टू कितना 1 prardha but ऑल्सो ऑल द वे इन द फ्रैक्शंस minutest of fractions also have numbers just like this that we just read in the WhatsApp. मतलब उसका कहीं प्रयोजन कुछ उसका उपयोग था उसकी कोई एक आवश्यकता थी तभी तो ऋषि लोग ने सोचा ऐसे फालतू चीजें थोड़ी सोचा सो इट शोज द डेप्थ ऑफ अंडरस्टैंडिंग ऑफ टाइम एंड ऑफ बीइंग एबल टू मेजर इट स्पेस टाइम एनीथिंग यू कैन मेजर वंस यू कैन डू नंबर्स सो इट्स अ वेरी वेरी ब्यूटिफुल एंड अपलिफ्टिंग एक्चुअली थॉट So prana actually not only means breath, but is also it's a unit of time. Astu, uttamam. Ha. Aduna, puta sankhya. Acha, puta sankhya kim abhyasa pustake kopi vadatu. Sankhya padam vadatu.
Chatu,
5.1.
Ha, 5.1 to...
त्रयोविंशतिः
त्रयोविंशतिः
चतुर्विंशति
इति मन्ये
चतुर्विंशतिः
चतुर्विंशतिः चतुर्विंशतिः हा कविता भगिनी न सुधा भगिनी पठतु आरम्भं करोतु अत्र
आं भगिनि अत्र प्रश्नस्य एक उत्तरं लिखितम्
एकम् उत्तरम्
एकम् उत्तरं लिखितम् अस्ति आवरणे विद्यमानस्य पदस्य सहायेन पुनः त्रीणि उत्तराणि लिखतु
वदतु भगिनि
आं भगिनि लिखतु
वाक्यद्वयम् अस्ति अत्र
लिखतु इति लोट्लकारः प्रथमपुरुष एकवचन सकर्मकक्रियापदम् अस्ति उत्तराणि इति उत्तराणि नपुंसकलिङ्गपदम् अस्ति उत्तराणि नपुंसकलिङ्गपदं द्वितीया विभक्ति एकवचन कर्मपदम् अस्ति त्रीणि इति नपुंसकलिङ्गपदं द्वितीया विभक्ति एकवचनपदं त्रीणि उत्तराणि द्वयोः मध्ये विशेषणविशेष्यसम्बन्धः अस्ति
त्रीणि एकं नपुंसकलिङ्गं पदं तु नास्ति किन्तु अत्र तु नपुंसकलिङ्गं रूपम् अस्ति किमर्थं पदं तु विशेषणपदम् अस्ति त्रीणि
संज्ञापदस्य रूपम्
अत्र तु नपुंसकलिङ्गम् अस्ति तत्तु सत्यं किन्तु पदं सर्वदा तु नपुंसकलिङ्गं नास्ति यतः विशेषण अस्ति अतः वयं किं वदामः नपुंसकलिङ्गं रूपम् अस्ति अत्र उत्तमम्
पुनः इति पुनः लिखतु पुनः इति क्रियाविशेषणं वा
हा क्रियाविशेषणम् अपि च अव्ययपदम्
अव्ययपदम्
क्रियाविशेषणं क्रियाविशेषणम् इत्युक्ते किम्
एड्वर्ब्
एड्वर्ब् क्रियापदस्य किमपि सूचनां ददति तत्र केन प्रकारेण क्रिया पुनः क्रिया अस्तु अग्रिमं
सहायेन इति पुंलिङ्गपदं पुंलिङ्गपदम् अस्ति पुंलिङ्गपदं तृतीया विभक्ति एकवचनपदम् अस्ति पदस्य इति पुंलिङ्गपदं षष्टिविभक्ति एकवचनपदं विद्यमानस्य इति पदस्य विशेषण अस्ति
सहायेन सहायेन पुनः वदतु भगिनि
सहायेन इति पुंलिङ्गपदं तृतीया विभक्ति
पुंलिङ्गं वा न वा सहाय तु नपुंसकलिङ्गम् अस्ति भगिनि इति अहं मन्ये एकवारं पश्यतु स्पोकन् संस्कृत मध्ये साहाय्य साहाय्य इति नपुंसकलिङ्गं किन्तु तृतीया विभक्ति तु समीचीनं नपुंसकलिङ्गं पदं
विद्यमानस्य पदस्य पदस्य मध्ये विशेषणविशेष्य सम्बन्धः अस्ति पुंलिङ्गं षष्ठी विभक्ति एकवचनं आवरणे इति नपुंसकलिङ्गपदं सप्तमी विभक्ति एकवचनं
उत्तमम् उत्तमम् इत्युक्ते यदि लघु लघु प्रश्न पृच्छामः चेत् ते के लिखतु कं लिखतु अपि च कानि लिखतु उत्तराणि लिखतु
कति उत्तराणि लिखतु त्रीणि उत्तराणि लिखतु कदा त्रीणि उत्तराणि लिखतु पुनः त्रीणि उत्तराणि लिखतु कदा समीचीनं वा
कदा तु समयकाले अस्ति पुनः तु कीदृश कीदृश लिखतु पुनः
कथं कथं
कथं तु कथं लिखतु पुनः लिखतु कथं तु अत्र समीचीनं नास्ति किमर्थं पुनः पुनः इति कथं पदस्य उत्तरं नास्ति कथं लिखतु इत्युक्ते लेखन्याः लिखतु केन लिखतु कथं लिखतु अहं मन्ये कीदृश कीदृश लिखतु इत्युक्ते पुनः लिखतु द्रष्टव्यं भगिनि एकवारं दृष्ट्वा वदामि भगिनि प्रश्नः तु समीचीनम् अस्तु अग्रिमं
केन केन उत्तराणि लिखतु पदस्य सहायेन उत्तराणि लिखतु
केन केन सहायेन कस्य सहायेन पदस्य सहायेन
कुत्र पदस्य सहायेन उत्तराणि लिखतु आवरणे पदस्य सहायेन उत्तराणि लिखतु
समीचीनं समीचीनं धन्यवादः भगिनि
धन्यवादः
शैलजा भगिनी अग्रिमम् एकम् अन्यवाक्यं तत्र दत्तम्
आं भगिनि
एकवारं
कुत्र पुस्तकम् अस्ति स्तूते पुस्तकम् अस्ति
न भगिनि भगिनि एकम् अन्यवाक्यं तत्र दत्तम्
आं भगिनि आं भगिनि अत्र 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 प्रश्नस्य एकम् उत्तरं लिखितम् अस्ति अस्ति अकर्मकपदम् अस् धातु
कीदृशपदं
क्रियापदमस्ति लिखितम् इति पदं लोट् लकारः मध्यमपुरुषः मध्यमपुरुष द्वितीयाविभक्तिपदमस्ति.
लोट् अस्ति वा? कथं जानीमः?
आं भगिनि, आज्ञा प्रार्थना लिखितम् इस् आज्ञा प्रार्थना पदम् एण्ड् इट् इस् द्विवचनं प्रथमपुरुष द्विवचनं.
लेखितं वा लिखितं?
लिखितं लिखितं भगिनि.
पापाजी प्रणाम.
हा विजय, आशीर्वाद.
पापाजी प्रणाम.
आशीर्वाद.
लोट् भगिनि, लोट् तु वदतु एकवारं. लोट् रूपाणि लिख् धातुतः.
आं भगिनि, इट् इस्
लोट्. अन्य कोऽपि वदतु.
लट्लकार.
लिट्
इस् लोट् ओन्लि नो भगिनि? लिट् एण्ड् लोट् अस्ति.
न न न, लिट् लिट् भिन्न, लोट् भिन्न.
लोट् लकार लिखितु लिखतु लिखतां लिखन्तु
लिखतात् लिखतु लिखतात् लिखतां लिखन्तु.
लोट् लकार आज्ञा प्रथमपुरुष इस् लिखतु
अपि च
लिखतां लिखतात् लिखतात् एण्ड् द्विवचनम् इस् लिखिताम् एण्ड् बहुवचनम् इस् लिखन्तु.
न लिखितां न, लिखतां
लिखतां एण्ड् लिखन्तु
लिखन्तु. तदनन्तरम्
एण्ड् मध्यमपुरुष एकवचनम् इस् लिख् लिख् एण्ड् लिखतात्
लिख
लिख
तत्र अस्ति. हा लिख लिखता.
आं भगिनि, लिख लिखतात् लिखितां लिखतां लिखताम् एण्ड् लिखत्
भगिनि लिखतं
लिखतं लिखत् लिखत
लिखत.
एण्ड् उत्तमपुरुष लिखानि लिखावा लिखाम. सो इट् इस् मध्यमपुरुष द्विवचनं लिख्
लोट् तु नास्ति तत्र, लिखितं दत्तं लिखितम्. अत्र तु लिखितं नास्ति किमपि
भगिनि.
लिखितम् इत्युक्ते किं? लिखितम् एकं प्रत्यय अस्ति अत्र. त प्रत्यय इत्युक्ते किं? त आधाक त प्रत्यय. त प्रत्यय भूतकालार्थक प्रत्यय अस्ति. प्रत्यय इत्युक्ते किं? सफिक्स्. लिख् योगः एकं मध्ये इडागम आयाति, एकम् अन्य प्रक्रिया अस्ति, इ आयाति, तदनन्तरं लिखि इति भवति. लिख् योगः इडागमः योगः किं? क्त धातु, क प्रत्यय, अपि च नपुंसकलिङ्गम्. किमर्थं नपुंसकलिङ्गम्? उत्तरं लिखितम् इत्युक्ते
उत्तरं लिखतु.
न न लिखतु न,
उत्तरं लिखितम्
लिखितम् इत्युक्ते किं? किं लिखितं? दत्तम् उत्तरं लिखितम्.
उत्तरान् उत्तरं लिखतु.
न भगिनि, एकवार वदामि. उत्तरं लिखितम् इत्युक्ते दिया हुआ उत्तर, लिखा हुआ उत्तर, लिखा हुआ उत्तर. That's what it means. लिखितम्.
It's written. One answer is written for the given question. That's what it meant, Bhagini.
लिखितम्. Lot tu nasti.
Written is past tense. Written.
Past लिखितम् tense. Lichitam is past tense. It you say. It's not a verb. किन्तु रिटर्न् रिटर्न् लिखितम् इत्युक्ते रिटर्न् आल्रेडि रिटर्न् लिखितं कथम् आयाति तत् तत् पदम् एकं प्रत्ययः अस्ति धातु धातु इत्युक्ते किं मूलरूप क्रियापदस्य मूलरूप धातु योगः एकं प्रक्रिया अस्ति इ आयाति लिखि भवति लिखि योगः कृतप्रत्यय नपुंसकलिङ्गं रूपं तम् आयाति लिखितम् इत्युक्ते उत्तरं लिखितं किं लिखितम् उत्तरं लिखितम् अवगतं किञ्चित् एकं नूतनविषय अस्ति तस्य विषय तु किमपि वयं न जानामि अस्य वर्गस्य किन्तु किञ्चित् अहं वदामि तदेव किमपि वदामि एवमेव चिन्ता मास्तु तत्र विषये चिन्ता मास्तु किन्तु अवगतं वा न वा अवगतं वा न वा उत्तरं लिखितम् इत्युक्ते किं रिटर्न् आन्सर्
रिटर्न् आन्सर्
भवती कृपया फार्मुला चाट् मध्ये लिखति वा लिख् योगः अपि
अत्र लिख् योगः एकम् एकं प्रक्रिया अस्ति भगिनि इडागमः
इडागमः
इडागम इडागमः इत्युक्ते किम् इडागमः इत्युक्ते किम् इ आयाति आगमः इ आगमः आयाति
लिक् प्लस् इ प्लस् योगः
हा प्लस् क्त 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 प्रत्यय
क्त इस् प्रत्यय
एकं प्रत्यय अस्ति हा किन्तु नपुंसकलिङ्गं रूपम् अत्र प्रत्यय
मा चिह्न अस्ति चेत्
त्रीणि लिङ्गानि अस्ति हा सो किं भिन्नभिन्नरूपम् अस्ति तत्र चाट् मध्ये अहं प्रेषयामि एकनिमिष अत्र ओहो किमर्थं तत्र न दत्तं किमर्थं दीर्घत्वं वा टु लाङ्ग् आर् वाट्
नो इट् इट्
के
देर् भगिनि
यु केन् रीड् इट्
ऐ केन् रीड् इट् यस् इट्स् देर्
इट् केम्
ओ ऐ केन् नाट् रीड् मैन् बिकास् इट्स् गान् इन् टु वन् लाङ्ग् वर्टिकल् इट्स् बिकम् लैक् जापनीस्
सो सो इट् सेस् लैक् दिस् भगिनि लिक् प्लस् इडागमः प्लस् थ प्रत्यय it is ta or ta bagani
ta
ta ta
ta ta
ta ta ta okay
ekam pratyaya asti aduna to tyajatu evam eva vadami eva atra yadi vyakaran varge गमिष्यति गमिष्यन्ति सर्वे तदनन्तरम् अग्रे आयाति सर्वे व्याकरणवर्गे ताप्रत्यय कथम् आयाति इडागमः कथम् आयाति इति हा अस्तु अस्तु उत्तरं लिखितम् अस्ति तदनन्तरं भगिनि
उत्तरं लिखितम् अस्ति एकम् उत्तरं लिखितम् अस्ति एकम् उत्तरम् इति क्रिया एकम् उत्तरम् इति द्वयोः मध्ये विशेषणविशेषभावः अस्ति उत्तरम् इति पदं नपुंसकलिङ्गपदम् एकवचनशब्दः अस्ति एकवचनशब्दः द्वितीया विभक्तिपदम् अस्ति एकं विशेषणभावम् अस्ति चेत् त्रीणि रूपाणि लिङ्गानि समानेव एकम् उत्तरं
द्वितीयविभक्ति कथम् अस्ति भगिनी
उत्तरं लिखितम्
उत्तरं लिखितं
सो उत्तरं इस् द्वितीया विभक्ति
न उत्तरं लिखितम् उत्तरम् एकं लिखितम् उत्तरमपि विशेषणविशेष्यभाव अत्र कीदृश उत्तरं लिखितम् उत्तरं लिखा हुआ उत्तर
भगिनि सोरि ऐ एम् गेटिङ्ग् सम् ब्रेक्स् इन् बिट्वीन् भगिनि नाट् एबल् टु हियर्
उत्तरं लिखितं तस्य मध्ये विशेषणविशेष्यभाव कीदृश उत्तरं लिखितम् उत्तरम् is not a karma padam uttaram is not a karma padam
okay uttaram likhitam
asti uttaram asti asti tu akarmaka asti
subject then bagini is it uttaram is kartrupadam asti napunsakaling sanya padam napuns kartrupadam
ha uttaram asti kartrupadam asti uttaram kidrusha uttaram likhitam uttaram ओ अस्तु लिखितं
रिटन् आन्सर्
इस् नाट् अ कर्मपदम् अत्र तदधुना
अत्र प्रश्नस्य एकम् एकम् इस्
उत्तरम्
एकम् उत्तरम् इस्
अपि विशेषण नो
सर् देर् इस् नो रिलेशन् लैक्
विशेषभाव
नास्ति भगिनि एकम् उत्तरम्
अस्ति भगिनि अस्ति उत्तरम् एकम् उत्तरम्
एकम् उत्तरं यस् ओके
एकम् उत्तरम् अपि च एकं लिखितम् उत्तरं विशेषणद्वये विशेषणे अस्ति
ओके भगिनि सो देर् आर् टु विशेषणविशेषभावास् इन् बिट्वीन् एकम् उत्तरम् एण्ड् उत्तरं लिखितं यस् ऐ अण्डर्स्टाण्ड् भगिनि यस् अफ्कोर्स्
तदनन्तरं
अत्र प्रश्नस्य प्रश्नः इति पदं पुल्लिङ्गशब्दः एकवचनशब्दः षष्ठी विभक्ति अण्ड् अत्र अव्ययपदमस्ति
अत्र अत्र इत्युक्ते अत्र उत्तमम् उत्तमं धन्यवादः भगिनी कविता भगिनी अग्रिमं करोतु एकं करोतु
कुत्र पुस्तकम् अस्ति स्यूते पुस्तकम् अस्ति
हा कुत्र पुस्तकम् अस्ति अस्ति कीदृशपदम्
अस्ति इति क्रियापदम् अकर्मकः क्रियापदम् अस् धातुरूप एकवचनरूपम् अस्
धातु तः इत्युक्ते वियोग धातु से निकला अस् धातु से आया अस् धातु तः
अस् धातु तः अस्ति इति क्रियापदम् आयाति
क्रियापदम् अस्ति उत्तरं
अकर्मक क्रियापदम् अस्ति
कः अस्ति अपि च किम् अस्ति अत्र
किम् अस्ति पुस्तकम् अस्ति कः अस्ति या कुत्र अस्ति
तत्तु प्रश्नः एव अस्ति हा उत्तरं वदतु
स्यूते पुस्तकम् अस्ति
स्यूते कीदृशपदं
पुस्तक स्यूते स्यूते इति पुंलिङ्ग् एकवचनरूपं सप्तमी विभक्ति पुंलिङ्गपदम् अकारान्तः पुंलिङ्गपदम् अस्ति
अकारान्तपुंलिङ्गपदं स्यूतः अपि च अत्र तु स्यूते सप्तमी एकवचनरूपं स्यूते पुस्तकम् अस्ति इत्युक्ते किम्
बैग के अंदर पुस्तक है पुस्तक है एक पुस्तक
एक पुस्तक है हाँ अन्य करो तो एकम अग्रिमम
तो एक्चुअली मुझे समझा नहीं है व्हाट इज द एक्सरसाइज के ब्रैकेट में जो दिया है उस पद के हेल्प से वापस तीनों उत्तर लिखिए
हाँ सो
अच्छा उसके नीचे जो तीन ब्लैंक्स दिए हैं वो
तदेव एकम अन्य पदम दत्तम आवरणे
ओके 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 अभी ग्रंथालयः तो ग्रंथालये पुस्तकम् अस्ति या तो फिर ग्रंथालये स्यूत अस्ति
न न स्यूतम् अस्ति
स्यूतम् अस्ति सो आई वांट टू से दैट नाउ
न न न स्यूत क्षम्यतां स्यूतः अस्ति क्षम्यतां पुंलिंग अस्ति भगिने
स्यूतः
अस्ति हां ग्रन्थालये स्यूतः अस्ति स्यूते पुस्तकम् अस्ति
ग्रन्थालयः इति अकारान्तः पुंलिङ्गपदम् एकवचनरूपम् अस्ति एण्ड् ग्रन्थालये इति सप्तमी विभक्ति एकवचनरूपम् अस्ति
उत्तमं तदेव सुन्दरम् अस्तु धन्यवादः भगिनी दीप्षिका भगिनी अग्रिमं करोतु
आं भगिनि आपणः आपणे पुस्तकम् अस्ति
आपणम् इत्युक्ते
आपणे आपण आपणे इस् अ शाप् दुकान् दुकान् आपणे आपणे सप्तमी विभक्ति न आपणे दुकान् मे पुस्तक है
आपणे पुस्तकम् अस्ति अपि च स्यूत विषये वदतु
आपणे स्यूतः अस्ति दुकान् मे बस्ता है
स्यूतः अस्ति उत्तमं शैल सुधा भगिनी पापाजी अग्रिमं करोति वा पापाजी के पास
आप करेंगे अगला वाला है हस्तः
हस्तः
हस्तः दिया उन्होंने उससे वाक्य बनाना है और मतलब हस्त मतलब हाथ तो हाथ में पुस्तक है तो इसको संस्कृत में बोलिए आपने अनम्यूट कर लिया
हस्ते पुस्तकम् अस्ति
हाँ उत्तमम् 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 हस्ते पुस्तकम् अस्ति उत्तमम् हाँ उत्तमम् अस्तु अधुना सुधा भगिनी अग्रिमं करोतु
आम भगिनी कुत्र बालकः अस्ति गृहे बालकः अस्ति नगरं गृहे कुत्र अस्ति गृहे नगरे अस्ति
न न गृहे कुत्र अस्ति गृहे तु नगरम् अस्ति किन्तु बालकः कुत्र अस्ति
बालकः गृहे अस्ति
गृहे तु अस्ति किन्तु बालकः अपि
नगरे अस्ति
नगरे अस्ति तत्तु समीचीनम् उत्तमम् उत्तमम् अग्रिमं करोतु
चित्रमन्दिरम् चित्रमन्दिरम् अतः
कीदृशपदं तत्र
चित्रमन्दिरम् इति नपुंसकलिङ्गपदम्
इत्युक्ते किम्
थियेटर्
थियेटर्
ओके
थियेटर् एकं मन्दिरम् अस्ति सनातनधर्मस्य सर्वं मन्दिरमेव सर्वं मन्दिरम् एव चित्रमन्दिरम् वदतु
चित्रमन्दिरं कुत्र अस्ति चित्रमन्दिरं नगरे अस्ति
बालकः कुत्र अस्ति
बालकः चित्रमन्दिरम् अस्ति चित्रमन्दिरे अस्ति
चित्रमन्दिरे अस्ति उत्तमम् धन्यवादः भगिनी
धन्यवादः
शैलजा भगिनी अग्रिमं करोतु
बेटा जेल कौन सा मंदिर होगा
जेल पापा पुराने जमाने में मुझे लगता है जेल नहीं थे।
ऐसा कैसे हो सकता है?
नहीं, जेल मतलब बहुत पुराने जमाने में ऐसे मैंने देखा भी है एकदम गांव में, कि जब कोई जैसे बुरा काम करता था या कोई तो उनको हाँ, क्या करते थे पूरे का
उनको गांव से निष्कासित कर दे।
नहीं, निष्कासित तो करते भी थे, वो भी एक था, लेकिन फिर वो अपना जंगल में जाके वो फिर जैसा भी थोड़ा मतलब प्रकृति में जाके सुधर जाए ना सुधर जाए। लेकिन एक और मैंने देखा है गांव में कि वो लोग ना एक बड़ा सा गोला बनाते हैं, पूरा गांव आ जाता है और उनको बीच में खड़ा करते हैं जो भी जिसने भी कुछ बुरा किया हो, और उनके प्रति बहुत सुंदर और बहुत क्या बोलेंगे प्रेरणार्थक उनके गाने गाए जाते हैं उनके ऊपर।
अच्छा।
हाँ, तो वो पूरा गांव सारा दिन गाते हैं।
ओहो।
हाँ, एक बड़ा मतलब ये फेस्टिवल जैसा हो जाता है कि वो सारा दिन उसको शुद्ध करते हैं व्यक्ति को, और इतनी प्रेरणा लेके वो व्यक्ति फिर धीरे धीरे शुद्ध हो जाते हैं। जेल जैसे मैंने देखे हैं, लेकिन जेल मैंने एकदम गांव गांव में देखा है, छत्तीसगढ़ के गांव में भी देखा मैंने। हाँ, उसमें एक प्लेटफॉर्म भी बनता है, प्लेटफॉर्म में खास वो उसमें खड़ा करके उसको, और गोल गोल ऐसे गाएंगे नाचेंगे चारों ओर उसके गांव, पूरा गांव आके गाता है। मतलब आपको सबको दिख रहा है कि आपने कुछ गलत किया है, लेकिन हम आप पे प्रेरणा, हम आपको, हम जानते हैं कि आप अंदर से शुद्ध हैं। ये
ठीक ठीक
अस्तु। किम अग्रिमं किम कस्य क्रमः? शैलजा भगिनी वा? किम, आई फॉरगॉट, कौन कर रहा था? उपा कस्य क्रमः अत्र? शैलजा भगिनी वा अत्र? पठतु भगिनी।
हेलो भगिनी, आम भगिनी, समहौ माई इट वेंट ऑफ, द स्क्रीन वेंट ऑफ, आई कुडंट टॉक, सॉरी भगिनी। कुत्र कुत्र पांचालिका अस्ति?
न न न, तस्य पूर्वम् एकं दत्तं न?
आम भगिनी, कुत्र बालकः अस्ति? उपाहारगृहम्, उपाहारगृहम्, उपाहारगृहे बालकः अस्ति।
उपाहारगृहे इत्युक्ते किम्?
उपाहारगृहम् इति शब्दः नपुंसकलिङ्गशब्दः अस्ति भगिनि।
हा, इत्युक्ते किम्?
हलो,
हा, इत्युक्ते किं भगिनि?
उपाहारगृहम् इस् इट् होटेल्? I don't know, Bhagini. I'm not sure.
Restaurant.
Upahar.
Balaka hai, kaakhi asti.
Kya, kaha pe?
Balaka hai, kaakhre asti.
Kaakhre it yukte?
Kaakhre maana kandhe ka hai, jih hai na? Kaakhre. Kandhe ki niche armpit, armpit. To, bachcha armpit mein hai, saare gaon mein dhoon rahe hain.
ओह, कांखरे अस्ति। कांखरे अस्ति, एक्चुअली ये होता है। एक बार मेरे पास एक इरेजर, मैंने ढूंढते ढूंढते रो रो के हालत खराब, हाथ के अंदर।
भगिनी, आई कांट हियर यू।
हाँ, शैलजा भगिनी न श्रूयते वा?
हाँ भगिनी, some disturbance, I think it's disconnecting, your voice is breaking for me, so I'm
it's
not
breaking for everybody.
Okay, shall I continue Bhagini?
Is my voice breaking?
Hello?
For everybody?
No, Gitanjali, no, Bhagini, I can hear you well. Yeah. Yes, I can hear everybody well.
Hello Bhagini,
Shailaja Bhagini, disconnect karotu tadanantaram punah
hello
Shailaja Bhagini punah agachatu.
Did you say something? Sorry, I'm not able to hear you.
Shailaja Bhagini, punah reboot.
I'll log in again, Bhagini. I'm just leaving now and log in again.
Karotu. Astu. Astu. Kavita Bhagini, agrivam karotu.
कुत्र पांचालिका अस्ति? उत्पीठिकायां पांचालिका अस्ति. उत्पीठिका इति आकारान्तः स्त्रीलिङ्गपदम्. उत्पीठिकायां इति सप्तमी विभक्ति अस्ति, एकवचनरूपम् अस्ति. पांचालिका इति आकारान्तः स्त्रीलिङ्गपदम् अस्ति.
उत्तमम्.
एण्ड् अस्ति इति कपाटिका 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 कपाटी एक मिनट कैन आई से पांचालिका कपाटी के अस्ति वा मींस आई एम आस्किंग
कीदृश पदम अत्र लिंगम किम
स्त्रीलिंग पदम
कीदृश स्त्रीलिंग पदम आकारांत आकारांत अस्ति चेत् रमावत् अस्ति रमावत् सप्तमी रमा इत्युक्ते किं
रमायां अच्छा तो कपाटिकायां पाञ्चालिका अस्ति सो देन् ऐ हेव् टु आन्सर् देट्
कपाटिकायाम् इत्युक्ते किं
कबर्ड् के अन्दर् डोल् है क्या न कपाटिकायां पाञ्चालिका नास्ति
नास्ति पाञ्चालिका कुत्र अस्ति
उत्पीठिकायां
तदेव उत्तमं कपाटिकायां पाञ्चालिका नास्ति पाञ्चालिका तु उत्पीठिकायाम् अस्ति अस्तु धन्यवादः भगिनी सुन्दरं दीप्षिका भगिनी अग्रिमं करोतु नास्ति वा कविता भगिनी भवती एव अग्रिमं करोतु
कण्टिन्यू चलेदु भगिनी
एकनिमेष चलेद भगिनी हा कविता भगिनी करोतु
हलो
पेटिका ओके पेटिका कपाटिकायाम् अस्ति
पेटिका
आम्
पेटिका इत्युक्ते किम्
अ ट्रङ्क् बेग् अ बिग् बेग्
पेटिका
पेटिका कपाटिकायाम् अस्ति निधानिका मुझे नहीं पता आई विल जस्ट चेक
शेल्फ भगिनी निधानिका
शेल्फ
यस थैंक यू शेल्फ सो कपाटिकायां निधानिका अस्ति आम् कपाटिकायां निधानिका अस्ति
पाञ्चालिका कुत्र अस्ति
पाञ्चालिका निधानिकायाम् अस्ति
अस्ति अस्ति या नास्ति अपि
हा शेल्फ में के ऊपर है ऐसा कह रही हूं मैं
उत्तमं तदेव सुन्दरं धन्यवादः भगिनी हा शैलजा भगिनी अधुना सम्यक् वा सम्पर्क सम्यक् वा श्रूयते वा भगिनी
सोरि एनी Is anyone facing the trouble or it's me only not able to hear clearly Geeta Bhagini's voice?
Aam Bhagini.
सर्वे वदतु सुधा भगिनी कविता भगिनी
वी आर ऑल एबल टू हियर क्लियरली भगिनी
यस इवन आई एम एबल टू हियर एवरीवन क्लियरली
या
अस्तु हां दीपशिखा भगिनी अग्रिमं करोतु नास्ति वा शैलजा भगिनी अस्ति वा They are having some klishta. Connection klishta. Astu. Aha. Sudha Bhagini Karotu.
Aam Bhagini. Kutra Mandiram Asti. Kashyam Mandiram Asti. Ujjainyam.
Kashi. Iti Kirdusha Padam.
काशी इति दीर्घ इकारान्त स्त्रीलिङ्गपदम् अस्ति
नदीवत्
नदीवत्
रूपाणि वदतु एकवारं
सर्वाणि रूपाणि वा भगिनि नदी नद्यौ नद्यः हे नदी हे नद्यौ हे नद्यः नदीं नद्यौ नदीः नद्या नदीभ्यां नदीभिः नद्यै नदीभ्यां नदीभ्यः नद्याः नदीभ्यां नदीभ्यः नद्याः नद्योः नदी नदीनां नद्यां नद्योः नदीषु
उत्तमं तदेव अत्र तु काशी अपि च काश्यां काश्यां मन्दिरम् अस्ति काश्यां मन्दिरम् अस्ति अस्तु बहुवचनरूपमस्ति चेत्
काश्यां बहुवचनरूपम् अस्ति चेत् काशीषु मन्दिरम् अस्ति
काशीषु तु एकमेव अस्ति किन्तु मन्दिर बहुवचनमस्ति चेत्
मन्दिर मन्दिरम्
काश्यां
मन्दिरं
कीदृशपदं मन्दिरं
मन्दिरं
कुत्र मन्दिरम् अस्ति कीदृशपदम् अत्र
मन्दिरम् इति नपुंसकलिङ्गपदं
तदनन्तरं
मन्दिरम् अस्ति मन्दिराणि मन्दिराणि काश्यां मन्दिराणि सन्ति
सन्ति बहूनि मन्दिराणि सन्ति काश्यां बहूनि मन्दिराणि सन्ति उत्तमं धन्यवादः भगिनी कविता भगिनी अग्रिमं करोतु
उज्जयिनी उज्जयिनी
कीदृशपदम्
उज्जयिनी इति दीर्घ इकारान्तः स्त्रीलिङ्ग पदं नदीवत् उज्जयिनी
सर्वाणि रूपाणि वदतु उज्जयिनी इति वदतु
उज्जयिनी उज्जयिन्यौ उज्जयिन्यः उज्जयिन्यं नदीम् उज्जयिनीं उज्जयिनीम् उज्जयिन्यौ उज्जयिनीः उज्जयिन्याः नो उज्जयिन्या उज्जयिन्यां नदीभ्याम् उज्जयिनी
उज्जयिन्याभ्याम्
उज्जयिन्याभ्याम् नदीभ्यां तु उज्जयिनीभ्यां नदीभिः तु उज्जयिनीभिः
नदीभ्यां किन्तु द्विवचने एकवारं वदतु पुनः
नदीम् उज्जयिनीम् उज्जयिनीं लम्बिनी नीम उज्जयिनीं नद्यौ उज्जयिन्यौ नदीः उज्जयिनीः
तृतीय
नद्या उज्जयिन्या.
तदनन्तरं
नदीभ्याम् उज्जयिनीभ्याम् नदीभिः उज्जयिनीभिः. चतुर्थविभक्ति नद्यैः उज्जयिन्येः. नद्यै उज्जयिन्यै नदीभ्याम् उज्जयिनीभ्याम् नदीभ्यः उज्जयिन्यो उज्जयिनीभ्यः. पञ्चमी नद्याः उज्जयिन्याः नदीभ्याम् उज्जयिनीभ्याम् नदीभ्यः उज्जयिनीभ्यः. षष्टी नद्याः उज्जयिन्याः उज्जयिन्याः नद्योः उज्जयिन्योः नदीनाम् उज्जयिनीनाम्. सप्तमी नद्याम् उज्जयिन्याम् नद्योः उज्जयिन्योः नदीषु उज्जयिनीषु.
किञ्चित् क्लिष्टा जाता. उत्तमं न तदेव उज्जयिनी उज्जयिनी दीर्घरूपम् अस्ति अपि च जकारद्वे वारम् आयाति. किञ्चित् क्लिष्टा जाता उज्जयिनीभ्याम् उज्जय. अधुना किं सप्तमी वदतु.
मतलब तीनो रूप.
हा सप्तमी न न अत्र कुत्र मन्दिरमस्ति.
कुत्र मन्दिरमस्ति मन्दिरम् उज्जयिन्याम् उज्जयिन्याम् अस्ति.
उज्जयिन्याम् उज्जयिन्याम्
उज्जयिन्याम् अस्ति.
उज्जयिन्याम् अस्ति सुन्दरं. धन्यवादः भगिनी.
धन्यवादः.
अस्तु सैजा भगिनी श्रूयते वा अधुना
भगिनी. आर् यु एबल् टु हियर् मी. ऐ एम् गेटिङ्ग् सम् ब्रेक्. ओके
अग्रिमं करोतु.
पुरी
पुरी न पुरी
पुरी पुरी पुरी इस् दीर्घ इकारान्त स्त्रीलिङ्गशब्दः. सो इट् इस् जगन्नाथः अगेन् पुरी पुर्याः मन्दिरम् अस्ति. पुर्याः जगन्नाथः मन्दिरमस्ति.
जगन्नाथस्य मन्दिरम् अपि च जगन्नाथमन्दिरं एकमेव पदं
जगन्नाथस्य
जगन्नाथमन्दिरम् एकं पदं जगन्नाथमन्दिरम् इत्युक्ते
जगन्नाथ
जगन्नाथमन्दिरं
जगन्नाथः और् जगन्नाथं भगिनि.
न अत्र
पूरी जगन्नाथं
भगिनी शृणोतु. एकं पदम् अस्ति जगन्नाथमन्दिरम् एकं पदम्.
आं भगिनि.
जगन्नाथ्यां
जगन्नाथमन्दिरम् अस्ति.
पूर्यां जगन्नाथमन्दिरम् अस्ति. पृथक् पृथक् वदामश्चेत् पूर्यां जगन्नाथ जगन्नाथ ईश्वरस्य मन्दिरम् अस्ति इति.
आं भगिनि.
हा हा पुरी इति पुरी. हा कीदृशपदं सर्वाणि रूपाणि वदतु एकवारं.
पुरी पुरी इति शब्दः सप्तमी विभक्ति एकवचनशब्दः अस्ति.
सर्वाणि वदतु सर्वाणि विभक्तिरूपाणि वदतु एकवारं शीघ्रं.
पुरी पुर्यौ पूर्यः हे पुरी हे पूर्यौ हे पूर्यः हे पुरीं पुरीं पूर्यौ पुरीः पुर्या पुरीभ्यां पुरीभिः पूर्यै पुरीभ्यां पुरीभ्यः पूर्याः पुरीभ्यां पुरीभ्यः पूर्याः पूर्योः पुरीभ्यां पूर्यां पूर्योः पूर्योः पुरीणां पुरीणां पुर्यां पुर्योः पुरीषु.
उत्तमं, धन्यवादः भगिनि. दीक्षिका भगिनी अग्रिमं करोतु.
आं भगिनि. कन्याकुमारी तो कन्याकुमार्यां जगन्नाथमन्दिरं नै कन्याकुमार्यां मन्दिरम् अस्ति.
मन्दिरम् अस्ति. कीदृशपदं कन्याकुमारी.
कन्याकुमारी दीर्घ ईकारान्त स्त्रीलिङ्गपदम् अस्ति. कन्याकुमार्यां सप्तमी विभक्ति एकवचन.
सर्वाणि रूपाणि वदतु सर्वाणि विभक्तिरूपाणि.
कन्या कन्याकुमारी कन्याकुमार्यौ कन्याकुमार्यः कन्याकुमारीं कन्याकुमार्यौ कन्याकुमारीः कन्याकुमार्या कन्याकुमारीभ्यां कन्याकुमारीभिः कन्याकुमार्यै कन्याकुमारीभ्यां कन्याकुमारीभ्यः कन्याकुमार्याः कन्याकुमारीभ्यां कन्याकुमारीभ्यः कन्याकुमार्याः कन्याकुमार्योः कन्याकुमारीणां कन्याकुमारीणां कन्याकुमार्यां कन्याकुमार्योः कन्याकुमारीषु.
उत्तमम् उत्तमम्. अधुना किं कुर्मः, यदि सर्वाणि वाक्यानि पुनः बहुवचनरूपम् अस्ति चेत् कस्य वदामः अधुना, कथं वदामः? अस्तु, कुत्र पुस्तकम् अस्ति बहुवचनम् अस्ति चेत्
कुत्र पुस्तकानि सन्ति.
हा कुत्र पुस्तकानि सन्ति. हा शीघ्रं शीघ्रं बहुवचनरूपाणि उत्तराणि वदतु. हा कविता भगिनी करोतु. कुत्र पुस्तकानि सन्ति.
स्यूते पुस्तकानि सन्ति.
सन्ति, उत्तमं. शैलजा भगिनी अग्रिमं करोतु.
ग्रन्थालये पुस्तकानि सन्ति.
पुस्तकानि सन्ति, अग्रिमं करोतु सुधा भगिनी.
आपणे पुस्तकानि सन्ति.
दीप्शिका भगिनी.
हस्ते पुस्तकानि सन्ति.
सन्ति. प्रश्न पृच्छतु भगिनी दीप्शिका भगिनी अग्रिमम्.
कुत्र बालकः अस्ति. कुत्र बालकाः सन्ति.
कुत्र बालकाः सन्ति. उत्तरं वदतु.
गृहे बालकाः सन्ति.
सन्ति. कविता भगिनी अग्रिमम्.
कुत्र नगराणि सन्ति दट्स् रैट्
कुत्र कुत्र
नगराणि सन्ति अच्छा बालक
न प्रश्न तु कुत्र बालकाः सन्ति प्रश्न तु एकमेव प्रश्न तु एकमेव अस्ति कुत्र बालकः अस्ति वा कुत्र बालकाः सन्ति बालकाः
बालकाः गृहे सन्ति
गृहे तु अभवत् अग्रिमं बालकाः
नगरं सो बालकाः नगरं सन्ति
नगरं सन्ति वा रूपं किम्
Then I'm going wrong with नगर मे तो सेवेंथ आएगा रामे तो नगरे हाँ बालकाः नगरे सन्ति सॉरी
तदेव बालकाः नगरे सन्ति
बालकाः नगरे सन्ति
तदेव उत्तमं सुधा भगिनी अग्रिमं करोतु
बालकाः कुत्र सन्ति बालकाः चित्रमन्दिरे सन्ति
चित्रमन्दिरे सन्ति उत्तमं शैलेजा भगिनी अग्रिमं करोतु
कुत्र कुत्र पाञ्चालिका
न न न
अस्ति
एकम् अन्य अस्ति मध्ये
उप ओके भगिनि ऐ गाट् द सेम् वर्ड् उप कुत्र बालकः अस्ति कुत्र बालकाः सन्ति उपाहारगृहे बालकाः सन्ति
उत्तमम् अग्रिमं करोतु शैलजा भगिनी एव करोतु
ओम् आं भगिनि कुत्र पाञ्चालिका पाञ्चालिकाः सन्ति कपाटिके पाञ्चालिकाः सन्ति
कपाटिके अपि च उत्पीठिका अस्ति अत्र तु
उत्पीठिकायां सोरि भगिनि इट् इस् स्त्रीलिङ्गशब्दः अस्ति चेत् इट् इस् कपाटिकायाम् उत्पीठिकायां पाञ्चालिकाः सन्ति
उत्पीठिकायां पाञ्चालिकाः सन्ति उत्तमं दीक्षिका भगिनी अग्रिमं करोतु
पेटिकायां पाञ्चालिकपाटिकायां पाञ्चालिकाः सन्ति
कपाटिकायां पाञ्चालिकाः
सन्ति
सुधा भगिनी अग्रिमं करोतु
पेटिकायां पाञ्चालिकाः नास्ति पाञ्चालिकाः नास्ति पाञ्चालिकाः उत्पीठिकायां सन्ति
नास्ति तु तत्र समीचीनं वा पेटिकायां पाञ्चालिकाः नास्ति वा बहुवचनरूपं किम्
न सन्ति
ओके बहुवचनरूपम् इति न अवगतम्
न सन्ति पाञ्चालिकाः इति कर्तृपदं तु बहुवचनमस्ति न सन्ति उत्तमम् उत्तमम् अग्रिमं किं कविता भगिनी करोतु
निधानिकायां पाञ्चालिकाः सन्ति
सन्ति निधानिकायां पाञ्चालिकाः सन्ति अग्रिममपि करोतु कविता भगिनी
कुत्र मन्दिराणि सन्ति काश्यां मन्दिराणि सन्ति
उत्तमं काश्यां मन्दिराणि सन्ति दीक्षिका भगिनी अग्रिमं करोतु
उज्जयिन्यां मन्दिरान् उज्जयिन्यां मन्दिराणि सन्ति उज्जयिन्यां मन्दिराणि
इकार अस्ति तत्र उज्जयिन्यां
अच्छा उज्जयिन्यां मन्दिरं सन्ति बहूनि मन्दिरं सन्ति
मन्दिराणि बहूनि मन्दिराणि सन्ति
उज्जयिन्यां मन्दिराणि सन्ति
अग्रिममपि करोतु भगिनि
पूर्यां जगन्ना
पुर्यां ह्रस्व अस्ति
पुर्यां जगन्नाथमन्दिरम् एक ही मन्दिर है तो वो तो मन्दिराणि नहीं होएगा उसका हाँ जगन्नाथमन्दिरम् अस्ति
अपि च पुर्यां मन्दिराणि सन्ति
पुर्यां मन्दिराणि सन्ति
तदेव शैलजा भगिनी अग्रिमं करोतु
आं भगिनि कन्याकुमार्यां मन्दिराणि सन्ति
उत्तमम् अवगतं सर्वे
आं भगिनि
सरलमेव अस्तु अग्रिमं सुधा भगिनी 5.2 आरम्भं करोतु
आं भगिनि एतस्य कोष्टकस्य आधारेण दशवाक्यानि लिखतु इति पदपरिचयं करोमि वा
पदपरिचय एकनिमिष किं न कृतवती अद्य दीप्षिका भगिनी न कृतवती पदपरिचय करोतु भगिनी एतस्य कोष्टकस्य आधारेण दशवाक्यानि
आं भगिनि एतस्य सर्वनाम पुल्लिङ्गपदं लिखतु
कस्य पदस्य आरम्भं
अच्छा लिखतु सकर्मकक्रियापदं लिख धातु एकवचन प्रथमपुरुष फिर वाक्यानि इज संज्ञा पदं कर्मपदं नपुंसकलिङ्ग कर्मपदं नपुंसकलिङ्ग बहुवचन
2.3
नपुंसकलिङ्गं पदं दश संख्यापदं विशेषणपदं आधारेण अकारान्त पुल्लिङ्गपदं आधारपदम् आधारेण तृतीयविभक्ति एकवचन
किमर्थम् अन्ते न आयाति
रामेण
तु अस्ति किन्तु लक्ष्मण अस्ति चेत् भवत्या सम्यक् न श्रूयते भगिनी अस्तु अन्य कोऽपि वदतु लक्ष्मण अस्ति चेत् तृतीय
लक्ष्मणेन
तत्र तु नकार आयाति अन्ते अत्र णकार किमर्थम् आयाति
रकारान्त आयाति सकारान्त आयाति इसलिये नकार आयाति
दीप्षिका भगिनी भवत्याः ध्वनिः किञ्चित् क्लिष्टा जाता भगिनी सम्यक् न श्रूयते अधुना
अभी सुनाई नहीं दे रहा
अधुना
अब दे रहा
अधुना
अब दिया
आधारेण मम प्रश्नः कः अन्ते नकार किमर्थम् आयाति लक्ष्मणरूपम् अस्ति चेत् वदतु तृतीय अपि च किमपि
लक्ष्मण लक्ष्मण
वदतु
लक्ष्मणेन
लक्ष्मणेन अन्ते
लक्ष्मणेन
किमर्थं नकार अत्र किमर्थं णकार इति मम प्रश्नः सुधा भगिनी पुनः वदतु
लक्ष्मण इति शब्दस्य इति शब्दायां रकार न आयाति इसलिए ना इस ना लक्ष्मणेन आधारेण इति शब्दायां रकार आयाति तो नकार विल बिकम नकार
मूर्धन्य नकार
नकार
मध्ये रेफ आयाति वा अपि च मूर्ध शकार अस्ति चेत् पदस्य मध्ये रेफ अस्ति चेत् वा मूर्ध शकार अस्ति चेत् तदनन्तरं मध्ये र अपि च न मध्ये किम् ए अस्ति अस्ति वा न वा आधार एण मध्ये ए आयाति मध्ये एकं सूत्रम् अस्ति अट् कुप् वाङ्नुं व्यवायेऽपि एकं सूत्रम् इति किं वदति यदि रेफ अपि शकार मूर्धशकारस्य अपि अन्ते नकारस्य मध्ये यदि किमपि स्वर अस्ति अपि किमपि कवर्गस्य वर्ण अस्ति अपि किमपि पवर्णस्य वर्ण अस्ति चेत् किमपि बाधा न भवति बाधा कस्य बाधा कस्य बाधा इत्युक्ते नकार णकार भवति तत्र इत्युक्ते किं णत्वं प्रक्रिया नाम किम् णत्वं मूर्ध णत्वम् अत्र णकार णत्वं भवति णत्वम् इत्युक्ते किं नकार णकार भवति किमर्थं रका रेफ अस्ति तदनन्तरं तु स्वर एव अस्ति स्वर किमपि बाधा न करोति तस्य प्रक्रियायाम् अवगतं किम् पुनः हिन्दीभाषायां वदतु दीक्षिका भगिनी अहं किं वदामि हिन्दीभाषायां वदतु
अगर वो रे में एंड हो रहा है रा है
एंड हो रहा है नहीं
आधार
पुनः बदतु
जैसे राम में तो रामेण आता है और र वाला जो तुम बता रही ना अगर रामेन नहीं लिखते हैं क्योंकि वो जो न है वो ळ में चेंज हो जाता है ना बिकॉज क्योंकि वो र र के बाद आ रहा है रामेण है ना र है उसमें
मध्य किम रामेण किम
मध्ये ए
अस्ति अपि एकम् अन्यवर्ण अस्ति
म
किं करोति तत्र
म बाधा करोति न
मा बाधा न करोति बाधा इत्युक्ते किं ऋणत्वम् इति एकं प्रक्रिया अस्ति तत् प्रक्रिया सा प्रक्रिया कृते किमपि बाधा न करोति. फॉर दिस प्रक्रिया कोई भी बाधा नहीं करता है. क्या स्वर अपि च क वर्ग अपि च प वर्ग.
सॉरी भगिनी, तो फिर रामेण में क्यों न हो गया, न नहीं रहा, क्योंकि इसमें तो र या श
प वर्ग आया ना बीच में. बीच में क्या आया, र और न के बीच में क्या आया, आ
म और ए
नहीं, आ रा आ अपि म अपि ए. म कस्य वर्गस्य वर्ण अस्ति,
प फ म प प वर्ग
प वर्ग. हाँ, यदि स्वर अस्ति चेत् किमपि क वर्ग वर्गस्य वर्ण अस्ति अपि च प वर्गस्य वर्ण अस्ति चेत् किमपि णत्वं कृते बाधा नास्ति. इट् डस् नाट् स्टाप् द प्रोसेस् आफ् णत्वम्. स्वर अपि प वर्ग अपि क वर्ग डस् नाट् स्टाप् द प्रोसेस् आफ् णत्वम्. देट्स् वट् इट् मीन्स्. देट् इस् द बाधा इट् डस् नाट् डू. इत्युक्ते किं, मध्ये यदि त आयाति तदनन्तरं तु बाधा करोति. कस्य बाधा, अणत्वं न भवति. अणत्वं न भवति तत्र.
दिस् इस् लैक् गिविङ्ग् द रूल् इन् द नेगेटिव् फॉर्म.
हा, गिविङ्ग् द रूल् इन् द नेगेटिव्. व्हेन् यू स्टार्ट टु स्टडी पाणिनि सूत्रस्, द सिंटैक्स ही हैज यूज्ड एंड द एल्गोरिथम्स ही हैज यूज्ड are completely glitch free. It is absolutely mind boggling. He has taken care of everything in the shortest glitch free manner. Any of you do software design or programming or any experience with that, you can understand when you make a software, so many glitches can come because you have not taken this into consideration. Oh my god, that condition, so many things can be possible on the planet. For a program to work, you have to consider every single possibility and make sure that only what you are commanding happens and no other possibility arises. So to do that, he has created a glitch-free program. These are the sutras, Ashtadhyayi.
Bhagini, sorry, the last rule, can you please repeat the rule?
So, natvam. कविता भगिनी वदतु, णत्वं किम्?
हिंदी में बोलती हूँ. अगर किसी पद में स्वर आता है, मतलब फर्स्ट और मतलब बीच में अगर स्वर आता है एंड फॉलोड बाय द प वर्ग या तो फिर क वर्ग, तो
इसके बीच में
स्वर और न के बीच में.
ना. फर्स्ट यू हैव टू सी कोई भी पद में निमित्तम है कि नहीं. इज द कॉज ऑफ णत्वम देयर? व्हाट इज द कॉज ऑफ णत्वम? सुधा भगिनी.
आम भगिनी,
व्हाट इज द कॉज ऑफ णत्वम?
रेप आयाति
अथवा
शकार आयाति.
मूर्धन्य शकार.
मूर्धन्य शकार.
हाँ, इफ अ पद हैज, अगर कोई भी पद में रेप हो या फिर मूर्धन्य शकार हो और उसके बाद वही पद में नकार हो, एक ही पद के अंदर शुरू में कहीं पे भी या तो र हो या फिर शकार हो, उसके बाद कभी भी पद में नकार हो, तो वो नकार णकार हो जाएगा. क्यों हो जाएगा? रसाभ्याम णो नः. अन्य सूत्र अस्ति. सूत्र किम? रसाभ्याम णो नः इति सूत्रम वदति. पद में, एक ही पद में या फिर या र या श हो और उसके बाद कहीं भी न हो तो वो न न बन जाएगा। देन अन्य सूत्र आयाति अटको बांग नुम व्यवायेपि। ये सूत्र क्या बोलता है कि अगर बीच में ये जो प्रक्रिया है णत्वम की, इसके बीच में या तो कोई स्वर आ जाए, या फिर कोई क वर्ग का वर्ण आ जाए, या फिर कोई प वर्ग का वर्ण आ जाए, तो कोई भी णत्वम के लिए बाधा नहीं करता। इति नियम अस्ति। अधुना वदतु कविता भगिनी, हिंदी भाषायां वदतु पुनः।
अगर किसी पद में रेफ है या मूर्धन्य शकार है और वही पद में न आता है,
उसके तो बाद, पहले नहीं,
हाँ उसके बाद अगर न आता है वही पद में, तो इसको न से न करने में प कार और प वर्ग और क वर्ग बाधा नहीं बनते,
और स्वर कोई भी स्वर,
हाँ और कोई भी स्वर।
ये तीनों चीजें अगर बीच में आ जाए, या तो बीच में कुछ ना हो तो कोई चक्कर ही नहीं है। अच्छा, ये तो रा के बाद सीधा ना आया तो वो सीधा ना बन ही जाएगा, किंतु अगर बीच में कुछ कुछ आया तो हमको देखना पड़ता है बीच में क्या आया। अगर स्वर है या प वर्ग है या क वर्ग है तो कोई बाधा नहीं करेगा अणत्वम होने में। अवगतम शैलजा भगिनी?
आम भगिनी।
तेन तेन कारणेन आधारेण अत्र तु मध्ये एकं वर्ण अस्ति, तत् किम्? न र तु निमित्तम् अस्ति। रेफ इज द कॉज, रेफ इज नॉट इन बिट्वीन, रेफ इज द कॉज। व्हाट इज इन बिट्वीन र एंड न? ए
ए
ए आधारेण ए आयाति। ए तु स्वर अस्ति, किमपि बाधा न करोति तत्र आधारेण इति कारणेन आधारेण। अवगतं दीप्षिका भगिनी?
आम भगिनी।
लक्ष्मणेन तत्र तु निमित्तम् अस्ति वा न वा? लक्ष्मणेन,
लक्ष्मणेन
निमित्तम् अस्ति वा? णत्वं प्रक्रिया कृते निमित्तम् अस्ति वा?
लक्ष्मणेन, हाँ लक्ष्मणेन में, क्योंकि वो र नहीं है उसमें और वो मूर्धन्य श नहीं है।
अस्ति वा मूर्धन्य श नकार तत्र नास्ति वा?
हाँ नहीं है लक्ष्मण, वो लक्ष्मण में अपन मूर्धन्य श क्यों लिखते हैं?
किम कोपी अन्य वदतु?
शक्कर वाला श लिखते
हैं।
हाँ
अन्य कॉपी वदतु?
लक्ष क में श लिखते हैं ना जोड़ के, लक्ष्मण।
क्ष क्ष इत्युक्ते किम्?
कौन सा षटकोण वाले लिखते हैं।
क्ष इत्युक्ते किम्?
मूर्धन्य श,
ककार तदनन्तरं मूर्ध शकार अस्ति। क्ष
इज इट नॉट क्षा, इज इट नॉट क्षा इन लक्ष्मण? इंस्टेड ऑफ मूर्धन्य क्षा इज लास्ट लेटर ऑफ
लक्ष।
क्ष इति संयुक्त अक्षर अस्ति इत्युक्ते किं? क कार अपि च मूर्ध मूर्धन्य षकार क्ष इति। क्ष संयुक्त अक्षर।
I thought the letter is like Aralava Seshasa Haksha Hakshatrajna Ksha, ksha.
Na, Murdhava
in between the Lakshmana.
Bagini Murdhava Taluva Kim Shakara Kim Bhavati Kim Bhavati.
It's not Murdhanya.
I don't understand. Which Sha are you talking about?
It's not Murdhanya Sha or Shesham Sha, but I'm thinking the letter in between Lakshmana is Ksha, which we write in Era, Lava, Sesha, Haksha. That one, Bhagini. Is it not that letter in between Yara, Lakshmana?
No, no, Bhagini. Type it and tell me which one you are talking about.
I thought earlier it was that Talu Wala Sha.
No, 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 no.
In Lakshman. Bhagini, it is not Talu. It is Murdhanya.
Gata Vargasya, Kim, hum to na jana me, kintu bahu kimapi masasya purvam aham sarvam vadami. Varnamala madhye kim kim asti, kim kim santi, uchcharana katham sarvam aham dattam eva. Varge eva.
Bhagini, I typed in spoken Sanskrit Daksha letter
chat
in WhatsApp group. Chat,
no. Chat madhye preshayetu, Bhagini. WhatsApp madhye chat madhye preshayetu. Atra kim bhavati? Kavita Bhagini vadatu. Lakshmanena kim bhavati tatra?
Yes, that's Daksha.
Bhagini, this is what Shailera Bhagini has sent on WhatsApp. Lakshmane.
Kshatriya wala. Kshatriya wala.
Kshatriya ityukte kim Kavita Bhagini vadatu. Ksha iti iti varnasya samyukta akshara vishaya vadatu.
Halantaka yogaha murdhanya ksha. Give this ksha. Means Lakshma, to kaksha. To isilie wo ka halant wala adha usko judta hai pura kshako, to ye kaksha ho jata hai ek saath, samyukta akshara. But abhi isme lakshma nen, to isme nimittam, to acha re aur sha, ha, to murdhanya sha aya lakshman mein, as the nimit, aur lakshma nena, aur इसके बाद न के बीच में स्वर आ रहा है तो इसीलिए णत्वम होने के लिए कोई बाधा नहीं है तो इसीलिए लक्ष्मणेन वो न नहीं ण होगा
मध्ये किम किम आयाति लक्ष्मणेन वदतु लक्ष्मा
म आया ए आया दो एक मतलब व्यंजन आया और एक स्वर आया दो आए
एक स्वर और एक व्यंजन किम तत् किम एक तो कोई भी एक हो सकता है किम मध्ये किम किम आयाति
म और ए
लक्ष्मेण थोड़ी बोलते लक्ष्मण
नहीं नहीं लक्ष्म म ने
आ अकारांत ए कारण
म
A
and A.
No. Ek nimisha. Kavita Bhagini. Lakshma. Lakshmakara.
Lakshma.
A. Tadanantaram.
Ma.
A.
Ne na. To na bhi aya aur A bhi aya.
Bhagini. Ek nimisha. Sopanani kani. Ekam sopanam swikritya agre gachhatu. Dhire dhire agre gachhatu. Ityukte kim. Madhye kim kim santi ksha asti. Prathama tu ksha asti. Ityukte shakara nimittam tu asti. Shakarya paryantam kim? Pare kim? Makara. Makara pare kim? Akara. Akara pare kim?
No.
ण मूर्धन्य णकार
ण और फिर ए वापस
लक्ष्मण णकार तदनंतरम ए तदनंतरम न अस्तु
न
मध्ये किम किम अस्ति द्वे तु स्वर
हां द्वे स्वर एंड द्वे व्यंजन
हां सो स्वर तु कैंसिल किमपि बाधा न करोति अधुना मकार बाधा करोति वा मकार बाधा करोति
वा
ना
बाधा नहीं नो प, प वाला क्लास नहीं करता
न करोति अधुना णकार करोति वा
नहीं
नहीं
किमर्थम णकार कस्य वर्गस्य आयाति वर्गः कः ट वर्ग अस्ति चेत् बाधा करोति वा न वा
न करोति
नो
किमर्थं न करोति
अच्छा प और क बाधा नहीं करते बाकी सब करते हैं
हाँ प और क वर्ग बाधा नहीं करते बाकी
करते हैं
नहीं मतलब how will we say this in the negative सिर्फ प और क बाधा नहीं करते
हाँ.
तो बाकी के बाधा करते हैं
इत्युक्ते किम अत्र किम
अच्छा बाकी के बाधा करते हैं णत्वम होने में इसीलिए ये न ही रहेगा ण नहीं होएगा अभी मैं बराबर बोली ना भगिनी
अधुना अधुना तो सम्यक अवगतम दीपशिका भगिनी अवगतम वा णकार कस्य वर्गस्य वर्ण अस्ति अत्र
णकार ट वर्गीय न ट ट ढ ढ ण
ट वर्गीय वर्ण
ट वर्गीय तो मतलब जो प और क हैं वो बाधा करते हैं हाँ सॉरी प प और क जो हैं वो बाधा नहीं करते हैं और बाकी वर्गीय बाधा करते हैं तो अगर प और क बाधा नहीं करते हैं तो हाँ तो अपना वो
च वर्ग तो, बाधा करेगा ट वर्ग बाधा करेगा ट वर्ग बाधा करेगा
बाधा करेगा तो ये जो बाधा करते हैं हाँ तो जब बाधा करते हैं तो वो जो लास्ट में फिर वो न आ जाता है
ना 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 बाधा करते हैं इत्युक्ते किम
बाधा करते हैं मतलब वो हाँ नट लास्ट में नट्व मतलब लास्ट में वो नहीं
भगिनी लास्ट में हो या कहीं भी हो मध्य
अच्छा
उसके बाद भी कुछ आ सकता है ना ऐसा जरूरी थोड़ी है कि वो लास्ट का ही होगा शुरू में रेफ या मूर्धशकार पद के अंदर कहीं पे भी शुरू में और उसके बाद कहीं भी बीच में न अस्ति चेत ये अंत में हो या कहीं भी हो सकता है खाली पहले न के पहले रेफ या शकार आना चाहिए बस पद में कहीं भी
अच्छा न के पहले रेप या शकार आना चाहिए और अगर रेप और शकार न के पहले नहीं आता है तो फिर वो न ण बन जाता है ऐसा है
नहीं 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 नहीं
उल्टा है अच्छा
ना 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 रेप अपि च शकार निमित्तम अस्ति निमित्तम इत्युक्ते किम हेतु कॉज दे आर द कॉज ऑफ णत्व वो नहीं होंगे तो चर्चा एवं नास्ति पद के अंदर रेप और मूर्धशकार ना हो तो ये चर्चा हम लोग की व्यर्थ है इसका कोई मतलब ही नहीं बैठता निमित्तम इत्युक्ते हेतु कॉज उसके कारण ही णत्वम होता है एक बार हमने कारण देख लिया ओ ये तो कारण आ गया अब होएगा कि नहीं अब तो होना चाहिए कारण तो आ गया लेकिन बीच में अगर चटता वर्गीय वर्ण आ गए तो वो बाधा रोक देते उसको रोक देते हैं तो हम नहीं होने देते
अच्छा तो रोक देते हैं तो इसलिए वो नट्वम नहीं होता है
नहीं हो पाया इसीलिए लक्ष्मण लक्ष्मणेन इसीलिए वो अंत में लक्ष्मणेन नहीं हुआ
हाँ अच्छा मतलब क और प वर्गीय क और प वर्गीय बाधा नहीं करते हैं
हाँ,
बाकी क च ट और स्वर नहीं करते च ट तो ये वर्गीय बाधा करते हैं तो इसलिए फिर वो ऋण नहीं आ पाता। ओके
अवगतम वा सर्वे? शैलजा भगिनी अवगतम?
आम भगिनी
वदतु एकवारं हिंदी भाषायां आङ्ग्लभाषायां वदतु।
आम भगिनि इन ए वर्ड इफ देयर आर लेटर्स लाइक रा रेप श और मूर्धन्य श और श
नो व्हाट डू यू मीन मूर्धन्य श और श व्हाट डज दैट मीन
इफ दीस लेटर्स आर देयर इन बिटवीन अ वर्ड
व्हिच लेटर्स
र हां
और
श
विच श
मूर्धन्य श हां
एंड
एंड श श
विच श
द टू वी राइट टू एंड वन नो भगिनी व्हाट इज दैट कॉल्ड
द तालु श
हेलो हां भगिनी
हां सो आई रिक्वेस्ट सम ऑफ यू हैव फॉरगॉटन दोस क्लासेस आई टॉट अबाउट ऑल द एक एक आई टॉट ऑल द वर्णस why they are where they are located what are the sounds they make please go back and review those you can make no progress in any vyakarana without understanding those fundamentals because the entire syntax of the vyakarana is based on that sound system is not based on a written system remember that it's based on he did all of this in sound only Panini Mahodaya That's why I call him Bhagwan. So, you have to go and review all those letters. Why they are there, what are they, what are the sounds they make, what is the difference in the different vargas. Huh? Please, everybody go and review those. That without that fundamental knowledge, you can not, you'll be able to maybe speak a little bit of Sanskrit in this class. But if you want to pursue it a little bit further, you'll be stuck. Like how just now only we'll be stuck. Please go back and review. So, the two shas are different. One is a talu sha. Talu ityukte kim? Talavya sha. Talavya ityukte kim? Dental sound. It comes from the the contact between tongue and the dental area. Sha, as in Shankara. Shankar wala sha. Then there is another one. Krishna. Shrakara. Shatkona. That is a Murdhasha. Totally different sounds. Atra for Natva Mahas. Sudha Bhagini Ekavaram Vadu.
Hello. Hello.
I'm
getting some breaks, Bhagini.
Bhagini, you go back and listen to this class in the recording. All the recording will be there. Then you will hear everything. Chaleja Bhagini. Please go and listen to the recording. You will hear everything clearly. Sudha Bhagini, ekavaram vadatu Bhagini. Mnatvam.
The letter na will be changed to na when it comes after.
So when you say like this, always say what sounds they are. Talu na.
Talu na. Talu na. Will be changed to Murdhanya Nakara when it comes after Repa or Murdhanya Shakara.
Within one word.
Within one word, yes.
Mm.
And if there is a Swara or a Kavarga or a Pavarga coming in between, then it will let the Natvam happen. That means the Talu Nakara will be changed to Murdhanya Nakara.
But
any other vargas, like if they come in between the letters in the same word, then badha karte hai, meaning that they won't let the natvam happen.
Any other meaning? Cha-ta-ta.
Cha-ta-ta.
Api? Haan. Cha ta ta, they will not cause any badha.
Badha.
I mean, they do cause badha. They will stop the natvam.
Natvam,
Chata
yeah.
Chatata will stop the natvam. Natvam. Ah. Iti. So please go back and review the Varnamala that I had given those class. I don't remember which month I gave it. Anybody remember? Please go back and remind, put it on WhatsApp. Without that fundamental understanding of the letters and the sounds they make and why they are located the way they are located in the Sanskrit language, it's very, very difficult to go back. Every single sutra I study involves this Maheshwara Sutrani Apicha Varnamala. Every single sutra I study, believe me. You cannot do any sutra without that fundamental knowledge in the back of your head, constantly there. So please keep revising that. Avagatam va?
Aam bhagini.
For any progress to make, you have to do that. Otherwise, it depends on what you want with your Sanskrit language journey. You know, you want to just become basic speakers with fundamental, just basic conversational speeches, or you want to be able to understand somebody's pravachan in Sanskrit. What is your goal? If your goal is to progress with the language so that you can write it correctly and hear it correctly, then a little bit of vyakarana is essential. For any vyakarana to happen, any vyakarana, even level 1, you have to know the Varnamala and the Maheshwara Sutrani. But before you do Maheshwara Sutrani, you must know the Varnamala. Why? And I have given in very much detail all this in previous classes. I don't know how many classes. I spent 1 month or 2 months on it. Please go back and review those. Very, very important. Huh? Astu. Astu, Antima Shanti Pat. Papaji, Antima Shanti Pat. अस्ति वा पापाजी शान्ति पाठ वदतु पापाजी
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते हरि ओम श्री गुरुभ्यो नमः हरि ओम
धन्यवाद सर्वेभ्य नमो नमः
नमो नमः धन्यवाद भगिनी
धन्यवाद भगिनी
नमस्कार
भगिनी आज दो तिथि साथ में है आसो सूद 5 अने छठ और कारागृह जी
बार भी दो थी
हाँ जॉइंट थी और कारागृह का एक फनी भी मैंने ऐसे ही डाला सर्च के लिए तो ये भी आता है कर ग्रह दैट इज that has many meanings but one of them is marriage also taking the hand in marriage karagraha is also a synonym for husband and a tax collector
oh same thing no
and karagraha is a prison house
oh
so I just thought I'd share this on a lighter note
Interesting. Abhi Dashera is on Sunday. Abhi Navaratri chal raha hai. So beautiful. The days are beautiful. Festive. I hope you are at least listening to the Devi Sutras or something in the Navaratri time. Astu. Astu. Dhanyavad Kavita Bhagini. Astu. So next class will be Tuesday, Wednesday. Hopefully I'll be able to teach. I think I'll still be in Lawrence next week, so I'll teach these two classes. Huh? Next week I'll teach After that, I hopefully will be in India to teach. If everything goes well, I'll reach and find a Wi-Fi to be able to teach. So?
आं भगिनि
धन्यवादः
भगिनी
धन्यवादः
सर्वेभ्यः धन्यवादः सर्वेभ्यः
बाबाजी प्रणाम धन्यवादः सर्वेभ्यः
भगिनी एनी ऐडिया वै महेश महोदय इस् नाट् भगिनी इस् लेफ्ट् ठीक है चलो
बाय एवरीवन लास्ट 2 वीक्स
Yeah, so does he join in the Tuesday class?
Last week he didn't come, Bagini. Yesterday I also didn't go to the class. I don't... Shivarupa Bagini was saying she was the only one in the class.
Achha, okay.
Yeah. Last week also Mahesh Mahdiya didn't come on Tuesday as well as Wednesday, right?
Yes. Wednesday I was present, so Wednesday I have not seen
Mahodaya. Yeah, Tuesday he didn't come. Yeah, Wednesday also he didn't come. Yesterday Shivarupa Bagini was the only one. I also didn't go. Shailaja Bagini said she also didn't go.
Oh, okay. Bagini, regarding the Varnamala, I think we did it in April. Maybe 8th
yeah,
April ka
yeah,
session.
Yeah, April, yeah.
I'm not confident, isliye bola nahi maine tabhi, but अभी हमारी दोनों की बात हो रही है तो
हाँ यार बगिनी आई आल्सो जस्ट वेंट बैक द नोट्स एंड सॉ इट वाज ऑन अप्रैल 15th और समथिंग
या
दैट वी नीड टू प्रैक्टिस एक्चुअली वी हैव बीन ओनली यू नो डूइंग विभक्ति एंड नंबर्स एंड ऑल दैट मे बी वी शुड स्टार्ट प्रैक्टिसिंग वर्णमाला आल्सो दैट विल बी मोर यूजफुल यू नो
यस बगिनी यू एंड शैलजा बगिनी एंड शिवरूपा बगिनी मीट अप एट व्हाट टाइम
We meet up at 11:45 here, US time, Eastern time, Bagini. That means for you, it will be like, you know, 8:15 in the night.
And which day do you all meet?
Till now, we had planned for, since the three of us are coming to Tuesday classes as well, we did on Monday, Thursday and Friday, Bagini.
Okay. If you don't mind, can you share the meeting details with me and Keith? Then I will join in.
We are using the Zoom ID. I got it from my husband, so I can share it with you. Yeah, we can do that. Because WhatsApp, when it was just me and Shivarupa Bagini, WhatsApp was okay. But when Shailaja Bagini also came, it doesn't work, you know, that well. So we switched to Zoom and it's without any problem.
Okay, Bagini.
Yeah, please do. If you can, please do join us. We can all learn together and have fun, you know.
Yes, Bagini, because I don't end up doing anything except this class time. And you can see that I am already falling far behind.
No, forgetting it's not like that. We also. All need to practice. So even if you can't make it the 3 days, you come for a day or two and, you know, we can plan accordingly. We had that time because for me, my son is in the online school. His lunch time is, you know, weird, like 11 o'clock. So after his lunch gets over, then I would join. So even if it is 5-10 minutes late, it's still okay. You know, we are just outside, so we can be flexible.
Sure, Bagini. Thank you so much.
No problem. I'll share the details. So this week we took a break because we have other stuff with Navratri. So we said we won't meet. And Monday we will meet. So before that, I'll share the Zoom details, Bagini.
All right, dear. Thank you.
Yeah. No problem. Happy Navratri.
Yeah. Happy Navratri to you
too. Thank you. Yeah. Thank you.
Bye.
Bye. Bye.